अथ मनसि सने स्थिरत्वमाप्ते भगवती मानुषमूर्ति वासुदेवे निज हृदि पृथगेकमेकमङ्गं चरणतलादि विचिन्त्यमस्य पुंसाम् निज हृदि दृशि गोचरे तदीये यवयव एकक एकके पृथक् च चपलमपि मनस्थिरं विधेयं व्रजति लयं खलु तेन तन्मलौघ ध्वज कमलय वाङ्कुशोर्ध्वरेखा प्रमुख सुलक्षण लक्षिते च रम्ये अतिशय मृदुले च यावकाभे चरणतले मनसास्य चिन्तनीये अरुणनखशशङ्कराजिकान्त्या वृतनिजचिन्तकवृत्तमोङ्घ्रियुग्मम् क्रमलघुसमकोमलाङ्गुलीभिरृतनवपल्लवकान्ति चास्य चिन्त्यम् निज जन मनसः प्रहर्षणार्थं परिधृतनूपुरसिञ्जितातिरम्यम् स्वगत निज जनाक्षिवृत्तिचोरं चरणयुगं हृदि चिन्तनीयमस्य किसलय मृदुले सुवृत्तजङ्घे क्रमपृथुले तसुवर्तुलौ च जानु करिकर सदृशं समं च पीनं निज हृदि सक्थियुगं च चिन्त्यमस्य मृदु घनसित सूक्ष्म दीर्घवास परिदददुत्तम हैम कांचिनद्धं पृथुलकटियुगं च चिन्तनीयं निज हृदये चिरमस्य भक्त भर्तु उदरमपि लसद्वलित्रयान्तर्गत शुभ सभ्रम निम्ननाभिकूपम् हृदयमुरुसुगन्धि पुष्पहारं समविततं हृदि चिन्त्यमस्य तुङ्गम् कनककटकशृङ्खलोर्मिकाभिर्लसदरुणाब्जनिभं करद्वयं च दृढतरमतिरम्य बाहुयुग्मं निज हृदयेऽस्य विचिन्त्यमङ्गदाढ्यम् विविधमणिविशुद्ध हेमसूत्र ग्रथितसुमौक्तिकहारहारिकण्ठ विगतशशकलङ्क आस्य चन्द्र स्थिरमनसास्य चिरं च चिन्तनीय मितहसितविसर्पिदन्तकान्ति प्रथनसमुज्ज्वलगण्डयुग्ममस्य नवनलिनदलायतं विचिन्त्यं निज हृदि चञ्चललोचनद्वयं च श्रवणयुगलमस्य कुण्डलश्री बहुविधपुष्पमयावतं शरण्यम् तरदलघुविशालबालराजत् सतिलककुङ्कुमचन्द्रकश्च चिन्त्य असिततिलकलक्ष्मदक्षगण्डे तिलकुसुमोत्तमनासिकान्तिकेऽस्ति विलसदसितबिन्दुरस्य वामे श्रवणपुटे भवतीति चिन्तनीय विविधकुसुमशेखरालिराजत् पटमुकुटं च शिरोस्य चिन्तयित्वा वदनकमलमेव चिन्तकेन स्मितमधुरं चिरकालमस्य चिन्त्यम्।